रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण राष्ट्रिय योजना आयोगस्य उपाध्यक्ष पदे डाक्टर गुणाकर भट्ट नियुक्तोऽस्ति। मन्त्री परिषद ह्य उपविष्टेनम् उपवेशेन डाक्टर भट्ट उपाध्यक्ष पदे नियुक्तोऽस्ति। मन्त्री परिषद उपवेशेन नेपाल राष्ट्र कोषागारस्य रिक्तयो द्वयो सहायक अधिशासकयोर्मध्ये एकस्मिन् पदे किरण पण्डित नियुक्तोऽस्ति। संघीय विषय सामान्य प्रशासन मन्त्री प्रतिभा रावल असूचयत्। एवमेव उपवेशेन पेट्रोलियम धनस्य न्यूनतमे प्रयोगेऽपि सर्वकारस्य एकादशाब्जानां द्विसप्तति कोटीनां रूप्यकाणां हानिः सम्भूता अस्ति इति तथ्याङ्को वर्तते इति ज्ञापितं वर्तते। मन्त्रिपरिषद उपवेशेन पेट्रोलियम धनस्य आनयने सीमा प्रवेश शुल्के पूर्वाधार विकास करे च प्रतिशतं 50 रूप्यकाणां सौविध्य प्रदानस्य निर्णयो विहितोऽस्ति इति मन्त्री रावल असूचयत्। मन्त्रिपरिषद उपवेशेन बृहत्तर लुम्बिनी क्षेत्र विकास परियोजनाया कृते विश्वकोषेण प्रदीयमानां 85 मिलियन अमेरिका देशीय डलर मुद्रां सौविध्यपूर्ण ऋणत्वेन स्वीकर्तुं निर्णीतमस्ति इति च मन्त्री रावल अज्ञापयत्। राष्ट्रपतिना रामचन्द्र पौडेलेन प्रधानमन्त्रिणः बालेन्द्र शाहविदस्य परामर्शेन ह्य मन्त्री परिषद सदस्यानां मर्यादाक्रमे परिमार्जनं विहितमस्ति। परिमार्जितस्य मर्यादाक्रमस्य अनुसारेण चैत्रमासस्य गतत्रयोदशे दिवसे संघटितायाः मन्त्रिपरिषदः तृतीयस्थाने विद्यमानः गृहमन्त्री सुदन गुरूङ पञ्चमस्थाने स्थापितो वर्तते। द्वितीयस्थाने अर्थमन्त्री डाक्टर स्वर्णिम वाग्ले, तृतीय स्थाने परराष्ट्र मन्त्री शिशिर खनाल, चतुर्थे च स्थाने ऊर्जा जलस्रोत सेचन मन्त्री विराज भक्त श्रेष्ठ वर्तन्ते इति राष्ट्रपतेः कार्यालयेन ज्ञापितम् वर्तते। राष्ट्रियसभाया उपाध्यक्ष पदे निर्वाचितया उपाध्यक्षेण लीला भण्डारी इत्यनया ह्य पदगोपनीयतयो शपथ गृहीतोऽस्ति। ह्य शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते विशेष कार्यक्रमे राष्ट्रपतेः रामचन्द्र पौडेलस्य समुपस्थितौ राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः राष्ट्रियसभायाः नवनिर्वाचिताम् उपाध्यक्षम् लीला भण्डारी इतीमाम् पदगोपनीयतयो शपथम् अग्राहयत्। समारोहे उपराष्ट्रपतिः रामसहाय प्रसाद यादवः, प्रधानमन्त्री बालेन्द्र शाह, प्रतिनिधिसभायाः सभामुख डोल प्रसाद अर्यालः, कार्यवाहक प्रधान न्यायाधीशः सपना प्रधान मल्ल, मन्त्रिणः, सांसदः, सांविधानिक निकायानां प्रमुखः, सर्वकारस्य उच्चपदस्थाधिकारिणश्च उपस्थिताः आसन्। राष्ट्रियसभायाः रिक्तानां चतुर्णां समितीनां सभापतयः निर्विरोधं निर्वाचिताः सन्ति। ह्य सम्बद्धानां समितीनां ज्येष्ठसदस्यानाम् अध्यक्षतायाम् उपविष्टेषु उपवेशेषु दलानां सहमतेः अनुसारेण एकैकेषां प्रत्याशिनां प्रस्तावे एते जनाः निर्विरोधतया निर्वाचिताः वर्तन्ते। निर्वाचितेषु सार्वजनिक नीति प्रत्यायोजित विधायन समितौ पूजा चौधरी, संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समितौ जयन्ती देवी राई, विकास आर्थिक विषय सुशासन समितौ कृष्ण प्रसाद पौडेल, विधायन व्यवस्थापन समितौ कृष्ण बहादुर रोकाया च सन्तीति राष्ट्रिय सभायाः सचिव तुलबहादुर कणेल असूचयत्। प्रतिनिधिसभायाः एस्तनोपवेशे राष्ट्रियसभातः ससन्देशं प्राप्तः विधेयक सम्बद्धाः त्रयः सन्देशाः प्रस्तुताः सन्ति। प्रतिनिधिसभायाः उपवेशे राष्ट्रियसभातः ससन्देशं प्राप्तानि गतविक्रमवर्षीयाणि राष्ट्रिय विधिविज्ञान प्रयोगशाला स्थापना सञ्चालन सम्बद्धं, पर्यटन सम्बद्धं, चलचित्र सम्बद्धं च त्रीणि विधेयकानि प्रस्तुतानि सन्ति। उपवेशे राष्ट्रियसभायाः सचिवेन हर्कराज राय इत्यनेन राष्ट्रियसभातः ससन्देशं प्राप्तः विधेयक सम्बद्धः सन्देशः प्रस्तुतः सन्ति। तत्पूर्वम् उपवेशे सांसदः देशस्य कृषेः, सामाजिकार्थिक सांस्कृतिक पूर्वाधार प्रविधिर्विकासस्य च विषयेषु सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। प्रतिनिधिसभायाः अपरोपवेशः अद्य दिवा एकवादने वसिष्यति। आगामिनः वैशाख मासस्य 15 दिवसात् नवीन शैक्षिक सत्रस्य सञ्चालनस्य मानदण्डस्य च विपरीतं गृहीतं प्रवेश शुल्कं प्रत्यावर्तयितुं संघीय सर्वकारेण स्थानीय सर्वकारेभ्यः पत्राचारो विहितोऽस्ति। शिक्षा विज्ञान प्रविधि मन्त्रालयेन संघीय विषय सामान्य प्रशासन मन्त्रालयस्य माध्यमेन सर्वेभ्य स्थानीय स्तरेभ्य पत्राचारं विधाय नैज विद्यालयेष् विधे विपरीतं गृह्यमाणस्य प्रवेश शुल्कस्य अन्येषां च शुल्कानां प्रत्यावर्तनाय अस्यैव चैत्र मासस्य द्वाविंश दिवसस्य शिक्षा मन्त्रालयस्य निर्देशनस्य क्रियान्वयनाय अनुगमनाय च अनुरूद्धमस्ति। मन्त्रालयस्य प्रवक्ता शिवकुमार सापकोटा शैक्षिक सत्रस्य प्रारभणानन्तरमेव विद्यार्थिनां प्रवेशाय मानदण्ड विपरीतं शुल्कं न ग्रहीतुं निर्दिष्टमस्ति इति असूचयत्। गृहीतस्य शुल्कस्य प्रत्यावर्तनाभावे विद्यालया अष्टाविंशत्युत्तर द्विसहस्रतम विक्रम वर्षस्य शिक्षाधिनियमस्य अनुसारेण दण्डयिष्यन्ते इति च विषयो बोधितोऽस्ति इति असौ अज्ञापयत्। गृहमन्त्रिणा सुदन गुरूङ इत्यनेन ह्य बीपी राजमार्गान्तर्गतस्य काभ्रे जनपदस्य रोशीखोला क्षेत्रस्य स्थलगतम् अनुगमनं विहितमस्ति। गतवर्षस्य भाद्र आश्विन मासयोः दुरापन्नस्य जलविप्लवस्य भूस्खलनस्य च कारणेन क्षतिग्रस्तस्य राजमार्गस्य विभिन्नेषु खण्डेषु जायमानानां निर्माण कार्याणां प्रगतिर्विषये च गृहमन्त्रिणा गुरूङ इत्यनेन जिज्ञासा विहिता आसीत्। निरीक्षणक्रमे गृहमन्त्री गुरूङ वर्षाकालस्य आरम्भात् पूर्वमेव राजमार्गस्य सम्भाराय सम्बद्धाधिकारिणः निरदिशत्। शिक्षा विज्ञान प्रविधि मन्त्री सस्मित पोखरेलः निगदति आगामिनां पञ्चानां वर्षाणाम् अभ्यन्तरे प्रत्येकं क्षेत्रेषु सुधारो भविष्यति। ह्य कञ्चनपुर जनपदस्य महेन्द्रनगरवर्तिनः सुदूरपश्चिम विश्वविद्यालयस्य निरीक्षणानन्तरम् आयोजिते कार्यक्रमे मन्त्री पोखरेलः प्रथमे वर्षे प्राथमिकतायाः आधारे शिक्षायां स्वास्थ्य च सर्वकारेण निवेशो विधास्यते इति प्रावोचत्। आराष्ट्रम शिक्षा क्षेत्रस्य सुधाराय कार्यं कर्तुं सर्वकारः प्रतिबद्धोऽस्ति इति चर्चयन् मन्त्री पोखरेलः सर्वकारस्य प्राथमिकतायाः विषयमाधृत्य कार्यं कर्तुं विश्वविद्यालयस्य पदाधिकारिणः कर्मचारिणश्च निरदिशत्। जलवायु विज्ञान विभाग पूर्वानुमान महाशाखया अद्य गण्डकी लुम्बिनी कर्णाली सुदूरपश्चिम प्रदेशानां पर्वतीय भूभागेषु हिमालयीय भूभागेषु च महत्या वृष्टेः हिमपातस्य च सम्भावना अस्ति इति ज्ञापितं वर्तते। एवमेव मधेश लुम्बिनी गण्डकी बागमती कोशी प्रदेशानां पर्वतीय भूभागेषु तराई क्षेत्रेषु च झञ्झावातस्य सम्भावना अस्ति इति ज्ञापितं वर्तते। महाशाखायाः अनुसारेण सम्प्रति नेपाले न्यूनचापीय प्रणाल्यः स्थानीयवातस्य च प्रभावो वर्तते। मुस्ताङ्ग जनपदे उच्चतायाः कारणेन प्राणवातस्य नैयून्येन चतुर्भिः वैदेशिक नागरिकैः सहिताः सप्त जनाः मृताः सन्ति। वर्तमानार्थिक वर्षस्य गतभाद्रमासादारभ्य अस्यैव चैत्रमासस्य विंशं दिवसं यावत् सप्त जनाः मृताः सन्ति इति मुस्ताङ्ग जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। ललितपुरस्य थसीखेल स्थाने ट्रक यानस्य प्रहारेण मोटरसाइकल याने आरूढयोः द्वयोः जनयोः मृत्युः सम्भूतोऽस्ति। मृतकौ सम्प्रति ललितपुर जनपदे वास्तव्यौ सुनसरी जनपदस्य 65 वर्षीय विदुर गुरूङ मोटरसाइकल याने आरूढा तस्य माता 85 वर्षीया धनमाया गुरूङ च वर्तेते इति प्रहरिणा ज्ञापितमस्ति।